परमात्मने नमः।
ॐ श्री परमात्मने नमः।
अथ द्वादशोऽध्यायः।
अथ द्वादशोऽध्यायः।
भक्तियोगः।
भक्तियोगः।
अर्जुन उवाच।
अर्जुन उवाच।
एवं सततयुक्ताये।
एवं सततयुक्ताये।
भक्तास्त्वां पर्युपासते।
भक्तास्त्वां पर्युपासते।
ये चाप्यक्षरमव्यक्तम्।
ये चाप्यक्षरमव्यक्तम्।
तेषां के योगवित्तमाः।
तेषां के योगवित्तमाः।
श्रीभगवानुवाच।
श्रीभगवानुवाच।
मय्यावेश्य मनो ये माम्।
मय्यावेश्य मनो ये माम्।
नित्ययुक्ता उपासते।
नित्ययुक्ता उपासते।
श्रद्धया परयोपेताः।
श्रद्धया परयोपेताः।
ते मे युक्ततमामताः।
ते मे युक्ततमामताः।
ये त्वक्षरमनिर्देश्यम्।
ये त्वक्षरमनिर्देश्यम्।
अव्यक्तं पर्युपासते।
अव्यक्तं पर्युपासते।
सर्वत्र गमचिन्त्यं च।
सर्वत्र गमचिन्त्यं च।
कूटस्थमचलं ध्रुवम्।
कूटस्थमचलं ध्रुवम्।
सन्नियम्येन्द्रियग्रामम्।
सन्नियम्येन्द्रियग्रामम्।
सर्वत्र समबुद्धयः।
सर्वत्र समबुद्धयः।
ते प्राप्नुवन्ति मामेव।
ते प्राप्नुवन्ति मामेव।
सर्वभूतहिते रताः।
सर्वभूतहिते रताः।
क्लेशोऽधिकतरस्तेषाम्।
क्लेशोऽधिकतरस्तेषाम्।
अव्यक्तासक्तचेतसाम्।
अव्यक्तासक्तचेतसाम्।
अव्यक्ता हि गतिर्दुःखम्।
अव्यक्ता हि गतिर्दुःखम्।
देहवद्भिरवाप्यते।
देहवद्भिरवाप्यते।
ये तु सर्वाणि कर्माणि।
ये तु सर्वाणि कर्माणि।
मयि सन्न्यस्य मत्पराः।
मयि सन्न्यस्य मत्पराः।
अनन्येनैव योगेन।
अनन्येनैव योगेन।
मां ध्यायन्त उपासते।
मां ध्यायन्त उपासते।
तेषामहं समुद्धर्ता।
तेषामहं समुद्धर्ता।
मृत्युसंसारसागरात्।
मृत्युसंसारसागरात्।
भवामि न चिरात् पार्थ।
भवामि न चिरात् पार्थ।
मय्यावेशितचेतसाम्।
मय्यावेशितचेतसाम्।
मय्येव मन आधत्स्व।
मय्येव मन आधत्स्व।
मयि बुद्धिन्निवेशय।
मयि बुद्धिन्निवेशय।
निवसिष्यसि मय्येव।
निवसिष्यसि मय्येव।
अत ऊर्ध्वन्न संशयः।
अत ऊर्ध्वन्न संशयः।
अथ चित्तं समाधातुम्।
अथ चित्तं समाधातुम्।
न शक्नोषि मयि स्थिरम्।
न शक्नोषि मयि स्थिरम्।
अभ्यासयोगेन ततः।
अभ्यासयोगेन ततः।
मामिच्छाप्तुं धनञ्जय।
मामिच्छाप्तुं धनञ्जय।
अभ्यासेऽप्यसमर्थोऽसि।
अभ्यासेऽप्यसमर्थोऽसि
मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः
सर्वकर्म फलत्यागम्
ततः कुरु यतात्मवान् श्रेयो हि ज्ञानमभ्यासात्
ज्ञानाध्यानं विशिष्यते
ध्यानात् कर्म फलत्यागः त्यागाच्छान्तिरनन्तरम्
अद्वेष्टा सर्वभूतानां
मैत्रः करुण एव च निर्ममो निरहंकारः
समदुःखसुखः क्षमी
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः
मय्यर्पितमनोबुद्धिः
यो मद्भक्तः स मे प्रियः
यस्मान्नो द्विजते लोकः
लोकान्नो द्विजते च यः
हर्षामर्षभयोद्वेगैः
मुक्तो यः स च मे प्रियः
अनपेक्षः शुचिर्दक्षः
उदासीनो गतव्यथः
सर्वारम्भपरित्यागी
यो मद्भक्तः स मे प्रियः
यो न हृष्यति न द्वेष्टि
न शोचति न कांक्षति
शुभाशुभपरित्यागी
भक्तिमान् यः स मे प्रियः
समः शत्रौ च मित्रे च
तथा मानापमानयोः
शीतोष्णसुखदुःखेषु
समः सङ्गविवर्जितः
तुल्यनिन्दास्तुतिर्मौनी
संतुष्टो येन केनचित्
अनिकेतस्थिरमतिः
भक्तिमान् मे प्रियो नरः
ये तु धर्म्यामृतमिदम्
यथोक्तं पर्युपासते
श्रद्दधानामत्परमाः
श्रद्धानामत् परमाः
भक्तास्ते दीवमे प्रियाः
भक्तास्ते दीवमे प्रियाः
ॐ तत्सदिति
ॐ तत्सदिति
श्रीमद्भगवद्गीतासु
श्रीमद्भगवद्गीतासु
उपनिषत्सु
उपनिषत्सु
ब्रह्मविद्यायां
ब्रह्मविद्यायां
योगशास्त्रे
योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम
भक्तियोगो नाम
द्वादशोऽध्यायः
द्वादशोऽध्यायः
श्रीकृष्णार्पणमस्तु
श्रीकृष्णार्पणमस्तु।